Webcast is now starting. All attendees are in listen-only mode.
नमस्सर्वेभ्यः अद्य चम्पूरामायणस्य बालकाण्डे षष्ठः वर्गः डिसेम्बर् मासस्य चतुर्थः दिनाङ्कः लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयन्निगमशाखिशिखा प्रवालम् हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नं विघ्नाद्विभेदशतधारधुरन्धरन्नः वाल्मीकिना रामायणस्य रचना कथमभूत् इति दृष्टवन्तः. रामायणं विरचय्य वाल्मीकिः चिन्तयति अस्य काव्यस्य पठने प्रसारे च अधिकारी कः इति. एनं प्रबन्धं प्रयोक्तुं कस्समर्थः इति चिन्ताम् उपगतवती सति भगवति वाल्मीकौ. उपागतौ मिलितपरस्परोपमौ बहुश्रुतौ श्रुतिमधुरस्वरान्वितौ विचक्षणौ विविधनरेन्द्रलक्षणौ कुशीलवौ कुशलवनामधारिणौ. कुशः लवः इति द्वौ चारणौ सर्वत्र गत्वा ये गाथां प्रसारयन्ति तादृशाः चारणाः. द्वौ चारणौ वाल्मीकेः समीपमागतौ इति लवकुशयोः वर्णनं करोति भोजः. मिलितपरस्परोपमौ परस्परम् अत्यन्तं सादृश्यं विद्यते अनयोः यमलत्वात्. बहुश्रुतौ वेदान् सर्वाणि शास्त्राणि च अधीतवन्तौ. अत एव विद्वांसौ बहुश्रुतशब्दस्य अधीतशास्त्रः विद्वान् इत्यर्थः. तादृशौ श्रुतिमधुरस्वरान्वितौ अनन्तरं तयोः स्वरः कण्ठः अपि अत्यन्तं मधुरः आसीत्. विचक्षणौ बुद्धिमन्तौ धीमन्तौ विविधनरेन्द्रलक्षणौ. नरेन्द्रः चक्रवर्ती नृपः. तस्य लक्षणानि लवकुशयोः देहे सर्वत्र दृश्यन्ते रामस्य पुत्रौ इत्यतः. अतः विविधनरेन्द्रलक्षणौ कुशीलवौ कुशलवनामधारिणौ उपागतौ वाल्मीकेः समीपम् आगतौ. एतौ मुनिः परिगृह्य स्वां कृतिम् अपाठयत्. वाल्मीकिः तौ शिष्यत्वेन स्वीकृत्य सम्पूर्णं रामायणं पाठितवान्. ततः तौ पुनरितस्ततो गायमानौ दृष्ट्वा रामः प्रहृष्टमनाः स्वभवनम् आनीय भ्रातृभ्यः परिवृतः निजचरितं गातुम् अन्वयुङ्क्त. लवकुशौ आदौ वाल्मीकेः आश्रमे रामायणस्य गानं कुरुतः. ततः कोसलस्य भिन्नेषु नगरेषु भिन्नासु वीथीषु रामायणं गायन्तौ सञ्चरतः. तौ दृष्ट्वा रामस्य सन्तोषः उत्पन्नः. तयोः गानं श्रुत्वा तथैव पुत्रौ इति प्राकृतिकः कश्चित् स्नेहः. तौ स्वभवनम् आनीय सर्वैः सभामध्ये रामः तस्य सर्वे भ्रातरः मन्त्रिणः सर्वे उपविष्टाः. तदा रामायणं गातुं सूचयति रामः. ततः लवकुशौ रामायणं गातुम् आरभेते. छन्दोमयीनां निलयस्य वाचाम् अन्ते वसन्तौ मुनिपुङ्गवस्य एतौ कुमारौ रघुवीरवृत्तं यथाक्रमं गातुमुपाक्रमेताम्. यथाक्रमं यथा वाल्मीकिना उपदिष्टं तेनैव क्रमेण रामायणं गातुं लवकुशौ आरभेते इत्येतावत्पर्यन्तं गतवर्गे अधीतम्. इतः परं सर्वमपि तैः किं गीतम् इति रामायणस्य कथां आरभते कविः. आदौ अयोध्यायाः वर्णनेन आरम्भः भवति. मूलरामायणे अपि तथैव. आदौ अयोध्यायाः वर्णनं, ततः दशरथस्य, तस्य अमात्याः, तस्य देशः एवं सर्वं वर्णयित्वा पुत्रशोकाकुलः दशरथः इत्येवं कथा अग्रे सरति. तत्र एकादशः श्लोकः चम्पूरामायणे. अनुवक्तुं ये इच्छन्ति प्रसन्ना मणिकर्ण यू हैव टू
नमो नमः
अस्ति प्रशस्ता
अस्ति प्रशस्ता अस्ति प्रशस्ता
जनलोचनानां
जनलोचनानां जनलोचनानां
आनन्दसन्दायिषु
आनन्दसन्दायिषु आनन्दसन्दायिषु
कोसलेषु
कोसलेषु कोसलेषु
आज्ञा समुत्सारित
आज्ञा समुत्सारित आज्ञा समुत्सारित
दानवानां
दानवानां दानवानां
राज्ञामयोध्येति
राज्ञामयोध्येति राज्ञामयोध्येति
पुरीरघूणां
पुरीरघूणां पुरीरघूणां
अस्ति प्रशस्ता जनलोचनानां
अस्ति प्रशस्ता जनलोचनानां अस्ति प्रशस्ता जनलोचनानां
तत्र अस्ति प्रशस्ता तिकार ति इत्यत्र गुरुत्वं भवति अस्ति प्रशस्ता जनलोचनानां
अस्ति प्रशस्ता जनलोचनानां अस्ति प्रशस्ता जनलोचनानां
आनन्दसन्दायिषु कोसलेषु
आनन्दसन्दायिषु कोसलेषु आनन्दसन्दायिषु कोसलेषु
आज्ञासमुत्सारितदानवानाम्
आज्ञासमुत्सारितदानवानाम् आज्ञासमुत्सारितदानवानाम्
राज्ञामयोध्येति पुरीरघूणाम्
राज्ञामयोध्येति पुरीरघु पुरीरघूणाम् राज्ञामयोध्येति पुरीरघूणाम्
सम्यक् परच्छेदः
अस्ति प्रशस्ता जनलोचनानाम् आनन्दसन्धायिषु कोसलेषु आज्ञासमुत्सारित दानवानां राज्ञाम् अयोध्येति
अयोध्या इति
राज्ञा इति एकं
राज्ञाम् अयोध्या
राज्ञाम् अयोध्या इति रघूणां
सम्यक् अस्मिन् श्लोके कथारम्भः क्रियते लवकुशाभ्याम् अयोध्यायाः वर्णनेन अस्ति प्रशस्ता जनलोचनानाम् आनन्दसन्दायिषु कोसलेषु आज्ञासमुत्सारितदानवानाम् राज्ञाम् अयोध्या इति पुरी रघूणाम् इति पदच्छेदः अस्ति इति क्रियापदं विद्यते किमस्ति पुरी काचित् नगरी विद्यते किन्नाम्नि पुरी अयोध्या इति पुरी अयोध्या इति नाम पुर्याः योद्धुम् अशक्या अयोध्या इत्युक्ते अत्यन्तं बलिष्ठः दुर्गः विद्यते तस्याः येन कारणेन केऽपि शत्रवः तत्र नगरम् आक्रान्तुं न शक्नुवन्ति इति अन्वर्थ नाम विद्यते नगर्याः साक्षात् मनुना निर्मिता इयं नगरी अयोध्या इति अयोध्या इति पुरी अस्ति कीदृशी सा पुरी प्रशस्ता अत्यन्तं प्रख्याता आर्यावर्ते सर्वत्र विख्याता पुरी अस्ति कुत्र अस्ति सा पुरी कोसलेषु कोसल जनपदे अस्ति उत्तरकोसलं विशिष्य उत्तरकोसलः इत्युच्यते तन्नाम्नि जनपदे एतत् ज्ञातव्यं यदा देशविशेषस्य नाम उच्यते सामान्यतः बहुवचने एव भवति कर्णाटकेषु केरलेषु आन्ध्रेषु इत्येवं जनपदस्य नाम बहुवचने उपयोक्तव्यम् इति नियमः. अत एव कोसलेषु, कोसलः इति एकम् एव राज्यम् अथवा जनपदः, किन्तु बहुवचने प्रयोगः क्रियते. अतः कोसलनामकजनपदे अस्ति इयं नगरी. कीदृशेषु कोसलेषु? आनन्दसन्दायिषु, जनलोचनानाम् आनन्दसन्दायिषु. ये जनाः तत्र वसन्ति तेषां लोचनानां नाम नेत्राणां, फार् द ऐस् आफ् द पीपल् आनन्दसन्दायिषु. सो दट् विच् डिलैट्स् द ऐस् आफ् द पीपल्. कथं भवति नेत्रानन्दः, कदा भवति अस्माकं देशस्य दर्शने इत्युक्ते, यत्र सर्वत्र समृद्धिः दृश्यते. यदा वयमपि कुत्रापि प्रयाणं कुर्मः तदा बहिः पश्यामः, कीदृशं देशं दृष्ट्वा मनसः आह्लादः भवति. यत्र सर्वत्र हरिद्वर्णं भवति, सर्वत्र समृद्धिः, सस्यादीनां समृद्धिः भवति, तादृशदेशं दृष्ट्वा आनन्दः जायते. एवं समृद्धः देशः इत्यर्थः. समस्तसमृद्धतया नेत्रानन्दं कुर्वन्ति कोसलाः, कोसलनामकः देशः. तत्र इयम् अयोध्या इति राजधानी विद्यते. केषाम् इयं पुरी इति चेत् रघूणाम् इत्यस्ति. रघुः प्रसिद्धः राजा, तद्वंशे उत्पन्नानां राज्ञां, राज्ञां पुरी इत्युच्यते. राजा प्रजारञ्जनात्, यः प्रजाः रञ्जयति स एव राजा इति कथ्यते. अतः प्रजारञ्जकानां, रघुवंशोत्पन्नानां नृपाणाम् इयं पुरी, रघूणां राज्ञां पुरी. कीदृशाः ते रघवः? आज्ञा समुत्सारित दानवानाम्. आज्ञेया इत्युक्ते स्वस्य आदेशेनैव समुत्सारिताः दानवाः. तैः गत्वा युद्धं कर्तव्यम् इत्यपि नास्ति, केवलं ते आदिशन्ति चेत् भीत्या सर्वे दानवाः अपि पलायनं कुर्वन्ति इत्यर्थः. आज्ञया, केवलम् आदेशेन, वचनेनैव समुत्सारिताः, दूरात् निरस्ताः. उत्सारणं नाम दूरात् गमनं, समुत्सारणम् अत्यन्तं दूरं पलायन्ते दानवाः, असुराः. येषां तादृशानां प्रचण्डशासनानाम्, अत्यन्तं पराक्रमिणः ते नृपाः, तादृशानां रघूणां पुरी इत्यर्थः. सो अस्ति प्रशस्ता, सो वेरि फेमस् पुरी, अ सिटि काल्ड् अयोध्या. सो वेर् इस् इट् लोकेटेड्? कोसलेषु, इन् द कोसल कण्ट्री. जनलोचनानाम् आनन्दसन्दायिषु, विच् डिलैट्स् द ऐस् आफ् आल् द पीपल् बिकास् आफ् इट्स् प्रास्पेरिटि. सो अयोध्या इस् इन् द कोसल कण्ट्री एण्ड् इट् इस् रूल्ड् बै रघूणां राज्ञां, बै द किङ्ग्स् आफ् द रघुवंश, हू आर् आज्ञा समुत्सारित दानवानां, बै हूस् मियर् आर्डर् आल् द डीमन्स् आर् ड्रिवन् अवे, नाट् बै देर् valor, it is just by order, just by their words all the demons are driven away. Such powerful rulers of the Raghu dynasty are ruling over this city called Ayodhya. Tatranmayah janalochananam ananda sandayishu kosaleshu, atyantam samriddhe kosala namni janapade, आज्ञा समुत्सारित दानवानां रघूणां राज्ञाम् अयोध्या इति प्रशस्ता पुरी अस्ति. सकलसम्पत् समृद्धे उत्तरकोसलजनपदे प्रचण्डशासनानां, प्रजारञ्जकाणां, रघुवंशस्य नृपाणाम् अयोध्या इति अन्वर्थनामिका प्रसिद्धा नगरी विद्यते इति श्लोके उच्यते. So in the Uttarakosala country, which is very prosperous, ruled over by the kings of Raghuvamsha, who are engaged in the welfare of the people and are equally powerful to keep away all the evil forces. So there is a city called Ayodhya, which is famed for its fortress, which does not allow, which is impregnable, which cannot be attacked by any enemies. So such a famed city is present in the Kosala country. Asti prashasta janalochananam ananda sanda ishikosaleshu ajna samutsarita danamanam rajyam ayodhyeti purira ghunam. Asti asabhuvi iti dhatoho latlakare prathama purushe ekavachanam. Asti staha santi rupani janalochananam. Jananam lochanani, janalochanani, tesham. Iti shashti tatpurushaha. Lochanam nayanam netram ikshanam chakshurakshini. Iti amaraha. Nayanam netram ikshanam chakshuhu akshi lochanam. Etani sarvani pariyayapadani. Ananda sandayishu. Anandam sandadati. దదాతి దత్తః దదతి బహువచనే అస్తి ఇత్యతః సందదతి ఉపపద సమాసః తాచ్ఛిల్యే నిని ఇతి ప్రత్యయః ఆనంద సందాయిన్ ఇతి నకారాంతః పుల్లింగః సప్తమీ విభక్తౌ ఏకవచనే సప్తమీ విభక్తౌ బహువచనే క్షమ్యతాం టంకణ దోషః సప్తమీ విభక్తౌ బహువచనే ఆనంద సందాయిషు కోసలేషు ఇతి ఇత్యపి సప్తమీ బహువచనం దేశ విశేషస్య సంజ్ఞా సర్వదా బహువచనాంతా భవతి ఇతి నియమః. అతః బహువచనం ప్రయుక్తం. ఆజ్ఞా సముత్సారిత దానమానాం. ఆజ్ఞయా సముత్సారితాః. ఆజ్ఞా సముత్సారితాః తృతీయ తత్పురుషః. ఆజ్ఞా సముత్సారితాః దానవాః ఏషాం తే ఇతి బహువ్రీహి సమాసః. తేషాం రాజ్ఞాం రాజన్ శబ్దః నకారాంతః పుల్లింగః షష్ఠీ విభక్తౌ బహువచనం. రాజా రాట్ పార్థివ క్ష్మాభృత్ నృప భూప మహీక్షితః ఇతి అమరః. సో రాజా రాట్ పార్థివః క్ష్మాభృత్ నృపః భూపః మహీక్షిత్ ఇత్యేవం పర్యాయ పదాని. దర్ ఇస్ ఆల్సో అనదర్ యూస్ఫుల్ థింగ్ ఆఫ్ ద అమరకోశ. వన్ ఇస్ యూ విల్ గెట్ టు నో ద పర్యాయ పదాస్ ఆఫ్ వన్ వర్డ్. సే దెర్ ఇస్ రాజన్, సో యూ హ్యావ్ సే లర్న్ 6 or 7 వర్డ్స్ ఫార్ దట్. దర్ ఇస్ ఆల్సో అనదర్ వెరీ ఇంట్రెస్టింగ్ థింగ్ ఆఫ్ అమరకోశ. ద థర్డ్ వర్గ ఇస్ కాల్డ్ ద నానార్థ వర్గ. సంస్కృతే బహూని పదాని తాదృశాని సంతి యేషాం బహవః అర్థాః భవంతి. సో దే విల్ హ్యావ్ మల్టిపుల్ మీనింగ్స్. So, the Amara will also collect what are the different meanings for a particular word. For example, for Raja, he says, Raja mrugaanke kshatriye nrupe. Rajan iti shabdaha, mrugaanke mrugaankaha nama chandraha. Chandrasyapi Raja rajan iti shabdasya prayogaha kriyate. Atayeva ishvarasya రాజమౌలిహి ఇత్యపి ఉచ్యతే. సహ చంద్రమౌలిహి సర్వే జానీమః, కింతు రాజమౌలిహి ఇత్యపి నామ విద్యతే తస్య. కుత్రాపి ప్రసిద్ధ కచిత్ కృతిః అస్తి శ్రీకాళహస్తీశ ఇతి, తత్ర రాజమౌలే ఇతి సంబోధనం. అతః రాజా ఇత్యుక్తే చంద్రః ఇత్యపి అర్థః. క్షత్రియః యః త్రాయతే ప్రజాః తాదృశస్య క్షత్రియస్యాపి రాజా ఇతి నామ క్రియతే. నృపః నృపః మహారాజః ఇత్యర్థస్తు జ్ఞాయతే ఏవ. ఏవం త్రిషు అర్థేషు రాజన్ శబ్దస్య ప్రయోగః కర్తుం శక్యః ఇతి ఇత్యపి అమరకోశే అస్తి. సో దట్ ఇస్ అనదర్ కైండ్ ఆఫ్ రెఫరెన్స్ దట్ ద అమర ప్రొవైడ్స్. సో ఫార్ వర్డ్స్ విచ్ హ్యావ్ ఎ మల్టిపుల్ మీనింగ్, ఇట్ విల్ కలెక్ట్ వాట్ ఆర్ ద డిఫరెంట్ సెన్సెస్ ఇన్ విచ్ ఇట్ కెన్ బి యూస్డ్. అస్తు రాజ్ఞాం అయోధ్య యోద్ధుం శక్య యోధ్య. సో యోధ్య ఇస్ దట్ విచ్ క్యాన్ బి ఫాట్. యుధ్ ఇతి ధాతోః న్యత్ ఇతి కృత్ ప్రత్యయః యోధ్య ఇతి భవతి. న యోధ్య అయోధ్య ఇతి నైన్య సమాసః. పురీ ಈಕಾರಾಂತ ಸ್ತ್ರೀಲಿಂಗ ಪೂ ಸ್ತ್ರೀ ಪುರೀ ನಗರ್ಯೌ ವಾ ಇತ್ಯಮರ ಪೂಹು ಇತ್ಯಸ್ತಿ ಪುರ್ ಇತಿ ರೇಫಾಂತ ಸ್ತ್ರೀಲಿಂಗ ಶಬ್ದ ಪೂಹು ಪುರೌ ಪುರಃ ಇತಿ ಪುರೀ ನಗರ್ಯೌ ಪುರೀ ನಗರೀ ಇತಿ ದ್ವೇ ದ್ವೌ ಶಬ್ದೌ ವಾ ಇತ್ಯುಚ್ಯತೆ ವಿಕಲ್ಪೇನ ಸ್ತ್ರೀಲಿಂಗೆ ಅರ್ಥಾತ್ ನಪುಂಸಕಲಿಂಗೆ ಅಪಿ ಪ್ರಯೋಗಃ ಅಸ್ತಿ ಪುರಂ ನಗರಂ ಇತಿ ನಪುಂಸಕಲಿಂಗೆ ಅಪಿ ಪ್ರಯೋಗಃ ಭವತಿ ಪುರೀ ನಗರಿ ಇತಿ ಸ್ತ್ರೀಲಿಂಗೆ ಅಪಿ ಭವತಿ ಪೂಹು ಇತಿ ತು ಸ್ತ್ರೀಲಿಂಗೆ ಏವ ಪುರಿ ರಘೂಣಾಂ ರಘುಃ ಇತಿ ಏಕವಚನ ಪ್ರಯೋಗೆ ಸಹ ರಾಜ ದಿಲೀಪಸ್ಯ ಪುತ್ರಃ ರಘುಃ ಇತ್ಯರ್ಥಃ ರಘೂಣಾಂ ಇತಿ ಬಹುವಚನ ಪ್ರಯೋಗೇನ ತದ್ವಂಶಜಾನಾಂ ಇತ್ಯರ್ಥಃ ಭವತಿ ಅತ್ರ ಕೋಪಿ ಪ್ರತ್ಯಯಃ ನಾಸ್ತಿ ರಘೋಃ ಅಪತ್ಯಂ ಪುಮಾನ್ ರಾಘವಃ ಇತಿ ಭವತಿ ರಾಘವಃ ಇತ್ಯುಕ್ತೆ ಅಪಿ ತದ್ವಂಶಜಾತಃ ಇತ್ಯರ್ಥಃ ಭವತಿ ಕಿಂತು ಕೇವಲಸ್ಯ ರಘುಶಬ್ದಸ್ಯ ಬಹುವಚನ ಪ್ರಯೋಗೇನಾಪಿ ಸಹ ಅರ್ಥಃ ಲಕ್ಷಣಯಾ ಗಮ್ಯತೆ ಅಸ್ಮಿನ್ ಶ್ಲೋಕೆ ಇಂದ್ರವಜ್ರ ವೃತ್ತಂ ಗತಶ್ಲೋಕೆ ದೃಷ್ಟವಂತಃ ಛಂದೋಮಯೀನಾಂ ಇತ್ಯತ್ರ ಇಂದ್ರವಜ್ರ ಉಪೇಂದ್ರವಜ್ರಯೋಃ ಮಿಶ್ರಣಂ ಆಸೀತ್ ಅತ್ರ ತು ಸರ್ವೇಷು ಪಾದೇಷು ಇಂದ್ರವಜ್ರ ಇತ್ಯೇವ ವೃತ್ತಂ ದ್ವಾದಶ ಅಕ್ಷರಾಣಿ ಭವಂತಿ ಪ್ರತಿಪಾದಂ ಸ್ಯಾದ್ ಇಂದ್ರವಜ್ರ ತಭಜ ಜಗೌಗಃ ತಭಜ I think this lakshana yadi tau jagau gah should be the lakshana tau ta ta ja and two gurus that is the lakshana of indravajra okay I'll change this chad indravajra yadi tau jagau gah so ta ta ja and two gurus that is the lakshana of indravajra so you have ta ta ja 3 into 3 is 9 letters plus last two gurus okay so it is one of the most popular 11 letter chandas so if there is a chandas with 11 letters it is most likely either indravajra or the upendravajra asti prashasta janalochananam ananda sandayishu kosaleshu ajnya samutsarita danamanam rajnyamayodheti puriraghunam ಅಗ್ರಿಮಃ ಶ್ಲೋಕಃ ಯತ್ರ ದಶರಥಸ್ಯ ವರ್ಣನಂ ಕ್ರಿಯತೆ ಶಾರದಾ ಭಗಿನಿ ಸಾಮಾವಸದ್ ದಶರಥಃ
ಸದ್ದಶರಥ
ಸುರವಂದಿತೇನ
ಸಂಕ್ರಂದನೇನ
ವಿಹಿತಾಸನ ಸಂವಿಭಾಗಃ
ವಿಹಿತಾಸನ ಸಂವಿಭಾಗಃ ವಿಹಿತಾಸನ ಸಂವಿಭಾಗಃ
ವೃಂದಾರಕಾರಿ ವಿಜಯೇ
ವೃಂದಾರಕಾರಿ ವಿಜಯೇ ವೃಂದಾರಕಾರಿ ವಿಜಯೇ
ಸುರಲೋಕಲಬ್ಧ
ಸುರಲೋಕಲಬ್ಧ ಸುರಲೋಕಲಬ್ಧ
ಮಂದಾರಮಾಲ್ಯ
ಮಂದಾರಮಾಲ್ಯ ಮಂದಾರಮಾಲ್ಯ
ಮಧುವಾಸಿತ
ಮಧುವಾಸಿತ ಮಧುವಾಸಿತ
ವಾಸಭೂಮಿಃ
ವಾಸಭೂಮಿಃ ವಾಸಭೂಮಿಃ
ತಾಮಾವಸದ್ದಶರಥಸುರವಂದಿತೇನ
ತಾಮಾವಸದ್ದಶರಥಸುರವಂದಿತೇನ ತಾಮಾವಸದ್ದಶರಥಸುರವಂದಿತೇನ
ಸಂಕ್ರಂದನೇನ ವಿಹಿತಾಸನ ಸಂವಿಭಾಗಃ
ಸಂಕ್ರಂದನೇನ ವಿಹಿತಾಸನ ಸಂವಿಭಾಗಃ ಸಂಕ್ರಂದನೇನ ವಿಹಿತಾಸನ ಸಂವಿಭಾಗಃ
ವೃಂದಾರಕಾರಿ ವಿಜಯೇ ಸುರಲೋಕಲಬ್ಧ
వృందారకారి విజయే సురలోకలబ్ధ వృందారకారి విజయే సురలోకలబ్ధ మందారమాల్యమధువాసితవాసభూమిః
తదచ్ఛేదః
తాం ఆవసత్ దశరథః సురవందితేన సంక్రందనేన విహితాసన సంవివాగః వృందారక అరివిజయే సురలోకలబ్ధ మందారమాల్య మధువాసిత వాసభూమిః
సమ్యక్. సో తాం ఆవసత్ దశరథః సుర వందితేన సంక్రందనేన విహిత ఆసన సంవిభాగః వృందారక అరి విజయే సుర లోక లబ్ధ మందార మాల్య మధు వాసిత వాస భూమిః. ఏకమేవ పదం, వస్తుతః పఠనే మిలిత్వా పఠనీయం. వృందారకారి విజయే సురలోకలబ్ధ మందారమాల్యమధువాసిత వాసభూమిః. ఆదౌ సౌకర్యార్థం తత్ర ఛేదః క్రియతే. వస్తుతః ఏకమేవ పదం, సురలోకలబ్ధ మందారమాల్యమధువాసిత వాసభూమిః ఇతి. దశరథస్య వర్ణనం. ఆవసత్, అధివసతి స్మ ఇత్యర్థః. కిం ఆవసత్, తాం తాం పూర్వస్మిన్ శ్లోకే అయోధ్యాయాః వర్ణనం కృతం. తాం అయోధ్యానగరీం ఆవసత్, తత్ర అయోధ్యాయాం వసతి స్మ ఇత్యర్థః. కః ఆవసత్, దశరథః. తాం ఆవసత్ దశరథః. దశరథ నామా రాజా, అజస్య పుత్రః, రఘోః వంశే జాతః, ప్రసిద్ధః దశరథనామకః రాజా అయోధ్యాం ఆవసత్. కీదృశః సః దశరథః ఇత్యత్ర వర్ణనద్వయం క్రియతే. సురవందితేన సంక్రందనేన విహితాసన సంవిభాగః దశరథః. వృందారకారి విజయే సురలోకలబ్ధ మందారమాల్య మధువాసిత వాసభూమిః దశరథః. విశేషణద్వయం దీయతే దశరథస్య. సురవందితేన సంక్రందనేన విహితాసన సంవిభాగః. విహితాసన సంవిభాగః, విహితః ఆసన సంవిభాగః. ఆసనం నామ సింహాసనం, రాజ్ఞః సింహాసనం. తస్య విభాగః నామ అర్ధం. పూర్వకాలే రాజ్యాం మధ్యె గౌరవ ప్రదర్శనస్య ఇదం అయం ఏకః ఇదమేకం విధానమాసీత్. అర్ధాసనం దీయతే ఇతి. ఇత్యుక్తే సింహాసనం తు మహారాజస్యైవ. తత్ర యది కశ్చిత్ అత్యంతం ప్రశస్తః అత్యంతం గౌరవస్య పాత్రం భవతి తర్హి మహారాజః స్వస్య ఆసనే తస్మై అర్ధభాగం దదాతి ఇతి సంప్రదాయః. సో దట్ ఇస్ వన్ వే ఆఫ్ షోయింగ్ రెస్పెక్ట్ ఫర్ సంబడి, అండ్ ఇట్స్ నాట్ ఈజీ. ఐ మీన్ ఇట్ కెనాట్ బి జస్ట్ సంబడి. సో సంబడి హూ డిజర్వ్స్ ఎ హ్యూజ్ రెస్పెక్ట్ బై ద కింగ్, సో హూ ఈస్ ఈక్వల్ టు ద కింగ్ ఇత్యర్థః. యదా రాజా స్వస్య సింహాసనే ఏవ అర్ధభాగం దదాతి తదా తేన సమః రాజతుల్యః ఇత్యర్థః. అతః విహితాసన సంవిభాగః, ఏషః సింహాసనే అర్ధభాగం ప్రాప్తవాన్. కస్య సింహాసనే ఇతి చేత్ సంక్రందనేన, సంక్రందనేన విహితాసన సంవిభాగః. సంక్రందనః నామ ఇంద్రః, దేవేంద్రః. దేవేంద్రస్య సింహాసనే ఏవ దశరథః అర్ధభాగం ప్రాప్తవాన్ ఆసీత్. సో హీ హూ షేర్డ్ ద థ్రోన్ ఆఫ్ ఇంద్ర. కీదృశః ఇంద్రః కీదృశః? సురవందితేన, సురవందితేన సంక్రందనేన విహితాసన సంవిభాగః. సర్వే సురాః ఇంద్రం పూజయంతి, యతోహి తేషాం రాజా. స सः इन्द्रः स्वस्य गौरवं प्रदर्शयितुं दशरथाय अर्धमासनं ददाति चेत् कः अर्थः? सो दश आल् द गाड्स् दे बो डौन् टु इन्द्र बिकास् ही इस् देर् हेड्. सो इन्द्र हिम्सेल्फ् इस् गिविङ्ग् हिस् हाफ् thrown to Dasharatha means Dasharatha is as good as Indra. That is, he is also worshipped by all the gods. So, by parampara. So, Suravanditena Sankrandanena Vihitasana Sambibhagaha Sarvaihi Devaihi Pujitaha Yaha Devendraha Tena Ardham Asanam Yasmai Dattam Tadrishaha Dasharathaha Ayodhyam Avasat Indratulyaha Ityarthaha. पुनश्च कीदृशः वृन्दारकारि विजये सुरलोकलब्ध मन्दारमाल्य मधुवासित वासभूमिः. वृन्दारकारि विजये, वृन्दारकाः नाम देवाः, वृन्दारकाणाम् अरयः अरिः नाम शत्रुः, देवानां शत्रवः नाम असुराः, तेषां विजये. दशरथः देवायन्द्रस्य साहाय्यं कर्तुं गच्छति स्म. न केवलं दशरथः, तस्य प्राग्वंशाः सर्वेपि नृपाः. अत एव आज्ञासमुत्सारित दानवानाम् इति पूर्वमेव उक्तम्. रघुवंशस्य सर्वेपि नृपाः इन्द्रस्य सुहृद्भूताः. यदा यदा इन्द्रस्य कण्टकं भवति, असुराणाम् आक्रमणं भवति स्वर्गे, तदा एतेषां साहाय्यं सः पृच्छति स्म इत्यस्ति. अत एव दिलीपस्य विषये अपि उच्यते रघुवंशे. दिलीपः असुरैः सह योद्धुं स्वर्गलोकं गत्वा प्रत्यागमनसमये कामधेनोः नमस्कारं न कृतवान् इत्यतः तस्य सन्ततौ विघ्नः अभूदिति. रघुः तस्यापि अस्ति, अजः, दशरथः, सर्वेपि तद्वंशीयाः राजानः इन्द्रस्य मित्राणि, अर्थात् तस्य साहाय्यं कर्तुं समर्थाः, इन्द्रस्यैव साहाय्यं कर्तुं समर्थाः इति. एवं वृन्दारकारि विजये, यदा कदाचित् युद्धसमये सः गतवान्, तत्र सर्वे दानवाः असुराः पराजिताः. ततः वृन्दारकारि विजये सति इति सति सप्तमी असुराणां पराभवे जाते सुरलोकलब्ध, तदा अत्यन्तं सन्तोषेण सुरलोके, सुरलोकः सुराणां लोकः स्वर्गः, तत्र लब्धानि प्राप्तानि. कथं प्राप्यते? सन्तुष्टैः देवैः दत्तानि. कानि? मन्दारमाल्यानि. मन्दारम्, मन्दारः इति सुरलोकस्य वृक्षः, पारिजातवृक्षः. तत्र मन्दाराणां नाम पारिजातपुष्पाणां माल्यानि, मालाः. केवलमेकं पुष्पं न, बहूनि पुष्पाणि. पारिजातस्य एकं पुष्पमेव भूलोके दुर्लभं, कदाचिदेव लभ्यते. तत्र मन्दार कुसुमानां माल्यानि, एकस्यामेव मालायां बहूनि पुष्पाणि भवन्ति. तादृश्यः बह्व्यः मालाः, मन्दारमाल्यानि, तेषां मधुना, मधु नाम पुष्परसः, द नेक्टर् आफ् द पारिजाता फ्लास्, तेन पुष्परसेन वासिता, वासिता नाम सुरभीकृता. सो फ्राग्रन्स् विच् इस् सेण्टेड् इत्यर्थः. वासित वासभूमिः, निवासस्थानम्, अर्थात् दशरथस्य गृहं कोऽपि प्रविशति चेत् अत्यन्तम् उत्तमः सुगन्धः. कस्य सः सुगन्धः? पारिजातपुष्पाणां मालाः. तत्र यदा अर्थात् युद्धे दानवानां पराजयः भवति, ततः विजयोत्सवः भवति किल स्वर्गे, तत्र सर्वे देवाः अत्यन्तं सन्तोषेण पारिजात माल्यानि यच्छन्ति दशरथाय. दशरथः गृहमानीय स्थापयति. इदानीं वयं कञ्चित् कार्यक्रमं गच्छामः, तत्र बोके इत्यादि लभ्यते चेत् गृहमागत्य स्थापयामः किल, तथा दशरथः तानि पारिजातमाल्यानि आनीय स्वस्य भवने स्थापितवान्. तेन अत्यन्तं सुगन्धि भवति तस्य निवासस्थानम् अथवा गृहम् इत्यर्थः. वृन्दारकारि विजये सुरलोकलब्धमन्दारमाल्यमधुवासितवासभूमिः, कः अर्थः? तदेकं निदर्शनं दीयते, भूलोके अपि यः स्वर्गसुखम् अनुभवति इत्यर्थः. यत् अत्यन्तं दुर्लभं भूलोके, स्वर्गे एव लभ्यते, तदेव अत्र बहु भूरि लभ्यते दशरथस्य गृहे इति कविः वदति. अवगतम्. सो दशरथ लिव्ड् इन् दट् सिटि काल्ड् अयोध्या. एण्ड् वाट् कैण्ड् आफ् अ किङ्ग् वास् दशरथ? हि वास् द वन् हू वास् शेर्ड् हाफ् अ थ्रोन् बै इन्द्र, हू इस् द किङ्ग् आफ् गाड्स्. दट् इस् हू वास् रेस्पेक्टेड् ईवन् बै इन्द्र. एण्ड् आल्सो वासभूमिः, हिस् हौस् और् हिस् रेसिडेन्स् वास् फुल् आफ् द फ्राग्रन्स् वासित. ओके, इट् वास् सेण्टेड् by the nectar of the parijata flowers, of the garlands of parijata flowers. So how did he get those parijata garlands? It was given to him by the devas, who were very happy when he helped them in defeating the asuras. Ityartha. So anmayaha suravanditena sankrandanena vihitasana samvibhagaha वृन्दारकारि विजये सुरलोक लब्ध मन्दार माल्य मधुवासित वासभूमिः दशरथः ताम् आवसत्. ताम् नाम अयोध्यानगरीम् आवसत् इत्यर्थः. माल्यम् इति नपुंसकलिङ्गे, माला इति स्त्रीलिङ्गे, सो तस्यैव तद्धितप्रत्ययः माल्यम् इति नपुंसकलिङ्गे भवति. पश्यामः अग्रे किं तात्पर्यम्. दशरथः नाम नृपश्रेष्ठः अयोध्यानगरीम् अधिवसति स्म. सः दशरथः देवराजस्य इन्द्रस्य अपि माननीयः. इन्द्रेण स्वस्य सिंहासने अर्थभागः तस्मै दशरथाय दत्तः आसीत्. किञ्च दानवानां विजयोत्तरं स्वर्गलोकात् लब्धानां पारिजातमालानां सुगन्धेन तस्य दशरथस्य निवासः सुरभितः आसीत्. तादृशः दशरथः. तामावसद्दशरथः सुरवन्दितेन सङ्क्रन्दनेन विहितासनसंविभागः वृन्दारकारिविजये सुरलोकलब्धमन्दारमाल्यमधुवासितवासभूमिः. आवसत्, आ इति उपसर्गः, वसनिवासे इति धातुः, तस्य लङ्लकारे प्रथमपुरुषे एकवचनम् अवसत्, अवसताम् अवसन् इति. ताम् आवसत् इत्यत्र व्याकरणविशेषः. किं वदामः सामान्यतः? अयोध्यायां वसति इति सप्तमीविभक्तेः प्रयोगः क्रियते अधिकरणम्. सो चेन्नैनगर्यां वसति इत्यादि. किन्तु यदा वसधातोः पूर्वम् एते उपसर्गाः भवन्ति, आ अधि उप, उप अनु अधि आ इति वस्तुतः चत्वारः उपसर्गाः, तदा कर्मसंज्ञा भवति. सो इन्स्टेड् आफ् सप्तमी वि यूस् द्वितीया विभक्ति बिकास् द अधिकरण बिकम्स् कर्म. सो इफ् इट् इस् जस्ट् वसति वि से अयोध्यायां वसति, बट् इफ् इट् इस् प्रिसीडेड् बै दीस् उपसर्गास् अयोध्याम् आवसति, अयोध्याम् अधिवसति, अयोध्याम् उपवसति, हरिः वैकुण्ठम् अधिवसति, शिवः कैलासम् उपवसति. सो अयं व्याकरणविशेषः, विशिष्टं सूत्रमस्ति इत्यतः वसधातोः पूर्वम् उप अनु अधि आङ् इति चत्वारः उपसर्गाः सन्ति चेत् कर्मसंज्ञा भवति, तेन द्वितीया विभक्तिः. दट् इस् वै इस् एस् ताम् आवसत् एण्ड् नाट् तस्याम् आवसत्. So it should have been tasyam, in the city. He lived in the city, ityeva arthaha. Arthaha sayeva. Dasharatha lived in Ayodhya, ityeva arthaha. Kintu prayoge tam, ayodhyam avasat iti bhavati, natu ayodhyayam avasat. So tam avasat. Dasharathaha suravanditena, suraihi vanditaha, suravanditaha tena. तृतीया तत्पुरुषः. सङ्क्रन्दनेन, इन्द्रस्य बहूनि पर्यायपदानि सन्ति. देर् आर् ऐ थिङ्क् मोर् देन् 30 पर्यायपदस् इन् द अमरकोश. इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः वृद्धश्रवाः शुनासीरः पुरुहूतः पुरन्दरः जिष्णुः लेखर्षभः शक्रः शतमन्युः दिवस्पतिः वास्तोष्पतिः सुरपतिः बलारातिः शचीपतिः ஜம்பபேதி ஹரிஹய ஸ்வாராட் நமுச்சிசூதன சங்கிரந்தன துஷ்யவன புராஷாட் மேகவாகன பகூனி பரியாய பதானி சந்தி. சோ சங்கிரந்தன இஸ் ஒன் ஆஃப் த பரியாய பதர்ஸ் ஆஃப் இந்திர இத்யர்த்தஹ. இந்திர இத்யர்த்தஹ சங்கிரந்தனேன விஹிதாசன சம்விபாக ஆசனஸ்ய சம்விபாக ஆசன சம்விபாக ஷஷ்டீ தத் புருஷ விஹித ஆசன சம்விபாக யஸ்ய. சோ டு ஹூம் ஃபார் ஹூம் த ஷேரிங் ஆர் ஸ்பிளிட்டிங் ஆஃப் த ஆசன வாஸ் டன் இத்யர்த்தஹ. விருந்தாரகாரி விஜயே விருந்தாரகாணாம் அரயஹ விருந்தாரகாரயஹ விருந்தாரகாரீணாம் விஜயஹ தஸ்மின் ஷஷ்டி தத்புருஷஹ. சோ விருந்தாரக சப்தஹ விருந்தாரகா தெய்வதானி பும்சிவா தேவதாஹ ஸ்திரியாம். சோ விருந்தாரகாஹ இதி தேவாஹ இத்யஸ்ய பர்யாய பதம் ஏவம் தெய்வதானி தேவதாஹ இதி சர்வம் பர்யாயம். ரிபௌ வைரி சபத்ன அரி த்விஷத் த்வேஷண துர்ஹ்ருதஹ. ரிபுஹு வைரீ சபத்னஹ அரிஹி த்விஷத் த்விஷன் த்வேஷணஹ துர்ஹ்ருத் இதி சத்ரோஹ பர்யாய பதானி. சுவிருந்தாரகாரி விஜயே சுரலோக லப்த மந்தார மால்ய மதுவாசித வாசபூமி. சோ அ லாங் சமஸ்த பத. But it is very easy. As I said, long samasas, you just have to take them 2 by 2. That is all. There is no other thing. Arthaha jnayate suralokaha. Suranam lokaha suralokaha. Shashti tatpurushaha. Suraloke labdham. Suraloka labdham. So suraloka labdhani. Kani mandara malyani. Mandaranam malyani. Mandara malyani. Suraloka labdhani. Mandara malyani. So karmadharaya samasa. This is so suraloka labdha mandara malyanam madhu shashti tatpurushah. So suraloka labdha mandara malya madhuna vasita, because vasita goes with vasabhumihi, it is strilinga, so fragranted or scented by ityarthah. So tritiya tatpurusha suraloka labdha mandara malya madhu vasita வாசஸ்ய பூமிஹி வாசபூமிஹி சுரலோக லப்த மந்தார மால்ய மதுவாசிதா வாசபூமிஹி யஸ்ய சஹ. சோ வி ஆர் நாட் டாக்கிங் அபவுட் த பிளேஸ் தேர், வி ஆர் டாக்கிங் அபவுட் தசரத ஹூஸ் ஹவுஸ் இஸ் சச். அத யஸ்ய சஹ இதி பஹுவ்ரீஹி சுரலோக லப்த மந்தார மால்ய மதுவாசித வாசபூமிஹி. வசந்த திலகா விரத்தம். So, the first shloka, Lakshmim Tanotu, so that is also in the same chandas. We have seen the Lakshana already. So, Tama Vasaddasha Rathasuravanditena Sankrandanena Vihitasana Samvibhagaha Vrindarakari Vijaye Suraloka Labdhamandara Malya Madhuvasitavasa Bhumihi. Agre Gacchamaha. Any questions? So after this we have a gadya. Athasmin anapatyataya duyamana manase putrartham kratum ashvamedham vidhatum mantribhis samam mantrayamane dasharathe sumantra prahishtamana maharshe rangadesha sangatavagraha nigraha shaundasya vibhandakasuno ravashyam rishishrangasya prasadat prabhavo bhavita kumaranam iti sanatkumaro diritam puravrittam asmai dasharathaya kathayamasa. So a single gadya which describes Dasharathasya putrabhava prayuktaha shokaha. So the sadness or the sorrow of Dasharatha because of lack of progeny. Sumantrena suchitaha upayascha atra kathyate. Okay. So parachedaha. Anybody wants to try? Janaki Bhagini. You have to unmute yourself by clicking on the microphone.
Namaste.
Namaste.
Asmin anapatyataya duyamanamanate sutrartam yasu ashwamedham yudhatum mantribihi samam mantriyamanu dasharathe sumantraha prahrishtamana
prahrishtamanaha
ప్రహృష్టమనాః మహర్షేః అంగదేశ సంగతౌ
సంగత
సంగత అవగ్రహ విగ్రహ శబ్దస్య విభాండక సూనోః అవశ్యం విభాండ సూనోః అవశ్యం ఋష్యశృంగస్య ప్రసాదాత్ ప్రభవో ప్రభవః భవిత కుమారానాం ఇతి సనత్కుమారోదీరితం పురావృత్తం అస్మై దశరథాయ కథయామాస.
సమ్యక్. సో అథ అస్మిన్ అనపత్యతయా. So this is a Namudagama Sandhihi. Asmin Anapatyataya. So there are two Nakaras here. Right? Asmin Anapatyataya iti Chedaha Tatra Madhye Nakarasya Agamaha Bhavati. So there is one more Nakara added and the Sandhi is called Namudagama Sandhi. So Asmin Anapatyataya Duyamana Manase Putrartham Kratum Ashwamedham Vidhatum మంత్రిభి సమం మంత్రయమాణే దశరథే సుమంత్ర ప్రహృష్టమనాః. సో యదా సంధిః భవతి తదా లోపః, దర్ ఇస్ నో విసర్గః, బట్ ఛేదే విసర్గః భవతి. ప్రహృష్టమనాః మహర్షేః అంగదేశ సంగత అవగ్రహ నిగ్రహ శౌండస్య విభాండక సూనోః అవశ్యం ఋష్యశృంగస్య ప్రసాదాత్ ప్రభవః భవితా కుమారాణాం ఇతి సనత్కుమార ఉదీరితం పురా వృత్తం రాజ్ఞే దశరథాయ కథయామాస. అథ అనంతరం. సో దశరథః వసతి, కశ్చిత్ కాలః గచ్చతి, సః సుఖేన వసతి, కింతు కించిత్ కాలానంతరం. అస్మిన్ దశరథే ఇతి అన్వయః. అస్మిన్ ఇత్యస్య దశరథే ఇత్యనేన అన్వయః. అస్మిన్ దశరథే పురా యథా ఉక్తం తాదృశే కోసలనృపతౌ అనపత్యతయా. అపత్యం న అపత్యం అనపత్యం నామ సంతతేః అభావః తేన అనపత్యతయా సంతతేః అభావేన బికాజ్ హి డిడ్ నాట్ హావ్ ఎనీ సన్స్. దూయమాన మానసే, దూయమానం పరితప్యమానం, ఎక్స్ట్రీమ్లీ సాడ్, ఇట్ ఇస్ వెరీ అజిటేటెడ్. మానసం మనః, దూయమానం మానసం యస్య సహ దూయమాన మానసః దశరథః. సో వెన్ దశరథ వాజ్ ఎక్స్ట్రీమ్లీ సాడ్ బికాస్ ఆఫ్ ద ల్యాక్ ఆఫ్ సన్స్. పుత్రార్థం సంతతి ప్రాప్తయే, ఫార్ బిగెటింగ్ చిల్డ్రన్. అశ్వమేధం క్రతుం, సో అశ్వమేధ సమ్యకం యజ్ఞం విధాతుం కర్తుం, సో టు పర్ఫార్మ్ అ యజ్ఞ కాల్డ్ అశ్వమేధ. మంత్రిభిః సమం, సో తస్య అమాత్యాః భవంతి తైః సహ అమాత్యైః సహ మంత్రయమాణే. So he was discussing. He was very sad that he did not have children and therefore he was discussing with his ministers about performing an Ashwamedha Yajna for begetting children. Mantribihi samam mantrayamane dasharathe ityatra anvayaha. So it is a Sati Saptami Prayoga. So when Dasharatha, who was extremely sad, was discussing with his ministers about performing an Ashwamedha sacrifice for begetting children, tada sumantraha, சுமந்திரஹ தசரதஸ்ய அமாத்யேஷு அன்யதமஹ. சோ ஒன் அமங் தசரதஸ் மினிஸ்டர்ஸ். சோ த வால்மீகி ராமாயண கிவ்ஸ் அ லிஸ்ட் ஆஃப் 8 ஆஃப் ஹிஸ் மினிஸ்டர்ஸ், திருஷ்டிஹி, ஜயந்தஹ, விஜயஹ அண்ட் சோ ஆன். சோ சுமந்திர வாஸ் ஒன் அமங் தெம். தசரதஸ்ய அமாத்யேஷு அன்யதமஹ சுமந்திரஹ பிரஹ்ருஷ்டமனாஹ. பிரஹ்ருஷ்டமனாஹ பூர்வமபி திருஷ்டம், ராமஹ பிரஹ்ருஷ்டமனாஹ இதி. பிரஹ்ருஷ்டம் மனஹ யஸ்ய சஹ சந்துஷ்ட சித்தஹ கத் அஸ்மை தசரதாய கதயாமாஸ. சோ த வாக்ய எண்ட்ஸ் தேர். சோ சுமந்திரஹ பிரஹ்ருஷ்டமனாஹ அஸ்மை தசரதாய கதயாமாஸ. அஸ்மை தசரதாய கதயாமாஸ கிம் கதயாமாஸ, சனத்குமாரோதீரிதம் புராவிரத்தம். சனத்குமாரேண உதீரிதம் கதிதம். சனத்குமாரஹ இதி மகர்ஷிஹி அத்யந்தம் பூஜ்யஹ ப்ரஹ்மணஹ மானசபுத்ரஹ சனகஹ சனந்தனஹ சனத்குமாரஹ சனத்சுஜாதஹ இதி சத்வாரஹ ப்ரஹ்மணஹ மானசபுத்ராஹ மஹர்ஷயஹ அத்யந்தம் பூஜனீயாஹ. தேன சனத்குமார மஹர்ஷிணா ப்ரஹ்மணஹ மானசபுத்ரேண கதிதம். பூர்வம் கதாச்சித் ப்ரஹ்மசபாயாம் கதிதம் புராவிருத்தம் பூர்வ விருத்தாந்தம் அஸ்மை தசரதாய கதயாமாஸ உவாச. சோ வென் தசரத வாஸ் கண்டக்டிங் அ டிஸ்கஷன் அபவுட் பர்ஃபார்மிங் த அஸ்வமேத சாக்ரிஃபைஸ், சுமந்திர டெல்ஸ் ஹிம் அபவுட் அன் அர்லியர் சம் இன்ஃபர்மேஷன் விச் வாஸ் டோல்ட் பை சனத்குமார அர்லியர். சோ கிம் உக்தம், சனத்குமாரோதீரிதம் புராவிரத்தம். சோ கிம் தத் பூர்வவிரத்தம், வாட் வாஸ் இட் தட் சனத்குமார செட். சோ தட் வாஸ் வாட் கம்ஸ் இன் பிட்வீன் இதி மகர்ஷேர் அங்கதேச சங்கத அவக்ரஹ நிக்ரஹ சௌண்டஸ்ய விபாண்டக சூனோர் அவசியம் ரிஷ்யசிருங்கஸ்ய பிரசாதாத் பிரபவோ பவிதா குமாராணாம் இதி. சோ தஸ் சோ திஸ் இஸ் வாட் சனத்குமார ஹட் செட். வாட் ஹட் சனத்குமார செட், மகர்ஷேஹே ரிஷிவர்யஸ்ய கஸ்ய அங்கதேச சங்கத அவக்ரஹ நிக்ரஹ சௌண்டஸ்ய. அங்கதேசே அங்க இதி தேசஹ, இட்ஸ் வெரி ஃபேமஸ் பிகாஸ் ஆஃப் கர்ண, அங்கராஜ கர்ண. பட் ஈவன் அட் த டைம் ஆஃப் த ராமாயண அங்கதேச வாஸ் எ வெரி ஃபேமஸ் கண்ட்ரி. சோ தஸ்மின் அங்க நாமக ராஷ்ட்ரே சங்கத நாம பிராப்த கஹ அவக்ரஹ. சோ அவக்ரஹ இஸ் எ ட்ராட், அனாவிருஷ்டி, விருஷ்டி பிரதிபந்தஹ. டியூ டு சம் ரீசன் தெர் இஸ் நோ ரெயின் ஃபார் அ லாங் டைம், தட் இஸ் கால்ட் அவக்ரஹ ஆர் ட்ராட். சோ அங்கதேச சங்கத அவக்ரஹ. சோ வென் தெர் வாஸ் ட்ராட் இன் த அங்க கண்ட்ரி, தஸ்ய நிக்ரஹே இன் கண்ட்ரோலிங் ஆர் ரிமூவிங் தட் ட்ராட், தஸ்ய நிக்ரஹே நிவர்த்தனே சௌண்டஸ்ய தக்ஷஸ்ய. That is who was able to relieve the drought which was in the Anga country. Tadrishasya maharshehe. Kaha tadrishaha maharshehe? Vibhandaka sunoho. Vibhandaka maharshehe putraha. The son of a sage called Vibhandaka. Rishyashrangasya. Tasya nama Rishyashrangaha. So a very famous sage who is known to bring rains. Okay, Shringagiri Kshetram tasya vasasthanam asid iti kathayanti, ata eva tatra Shringagirihi iti nama, tatra samipe Shringeri samipe Rishyashringasya devalayah api asti. So prasiddhaha shlokaha ekaha vidyate, Rishyashringaya munaye vibhandaka sutayata namashantadhipataye sadya sadvrishti hetave. சோ விருஷ்டியர்த்தம் அஸ்ய ஸ்லோகஸ்ய பாராயணம் கிரியதே. சோ தி ஸ்லோக இஸ் சாண்டட் ஃபார் ரெயின்ஸ். சோ ஹி வாஸ் த சன் ஆஃப் அ சேஜ் கால்ட் விபாண்டக, த ஹஸ்பண்ட் ஆஃப் சாந்தா. சத்ய சத்வருஷ்டி ஹேதவே, சத்ய இமீடியட்லி சத்வருஷ்டி ஹேதவே, ஹூ பிரிங்ஸ் குட் ரெயின்ஸ் அஸ் இன் அடிக்வேட், நீதர் மோர் நார் லெஸ் பிகாஸ் போத் அதிவிருஷ்டி அண்ட் அனாவிருஷ்டி இஸ் வெரி டேஞ்சரஸ். சத்வருஷ்டி ஹேதவே தாதிருஷஹ ரிஷ்யஶ்ருங்கஹ மஹர்ஷேஹ அங்கதேச சங்கத அவக்ரஹ நிக்ரஹ சௌண்டஸ்ய விபாண்டக சூனோஹ ரிஷ்யஶ்ருங்கஸ்ய பிரசாதாத் அனுக்ரஹேண. சோ பை ஹிஸ் கிரேஸ் அவசியம். சோ அவசியம் இஸ் இன் பிட்வீன் விபாண்டக சூனோர் அவசியம் ரிஷ்யசுங்கஸ்ய. சோ அவசியம் நிச்சயேன குமாராணாம் பிரபவ. சோ குமாராணாம் புத்ராணாம் உற்பத்தி அதவா ஜன்ம பவிதா பவிஷ்யதி இதி சனத்குமாரோதீதம். So Sanatkumara had said earlier that when Dasharatha did not have sons, by the grace of Rishyashringa, the son of Vibhandaka, and he who relieved the drought in the Anga country, so by his grace, definitely there will be the birth of sons. That is what Sanatkumara had said. Now Sumantra recounts this to Dasharatha to relieve him of his shoka. Shoka nivaranartham Sumantraha etat kathayati. அவகதம் அத அஸ்மின் அனபத்தியதயா தூயமான மானசே புத்ரார்த்தம் க்ரதும் அஸ்வமேதம் விதாதும் மந்த்ரிபிஹி சமம் மந்த்ரயமானே தசரதே சுமந்த்ரஹா ப்ரஹஷ்டமனாஹ மஹர்ஷேஹே அங்கதேஷ சங்கத அவக்ரஹ நிக்ரஹ சௌண்டஸ்ய விபாண்டக சூனோஹ அவஷ்யம் ரிஷ்யஶ்ருங்கஸ்ய ப்ரசாதாத் ப்ரபவோ பவிதா குமாராணாம் இதி சனத்குமாரோதீரிதம் புராவிருத்தம் அஸ்மை தசரதாய கதயாமாச. சோ ராமாயணே அபி உச்சதே தஸ்ய சைவம் பிரபாவஸ்ய தர்மஜ்ஞஸ்ய மகாத்மனஹ சுதார்த்தம் தப்யமானஸ்ய நாசீத் வம்சகரஸ்ஸுதஹ. சோ இன் பிட்வீன் த ராமாயண தெர் இஸ் அ லாட் ஆஃப் டிஸ்கிரிப்ஷன் ஆஃப் அயோத்தியா, ஆஃப் தசரத, ஆஃப் ஹிஸ் மினிஸ்டர்ஸ், ஆஃப் ஹிஸ் கிங்டம் அண்ட் சோ ஆன். So then he says, Tasya cha evam prabhavasya dharmajnyasya mahatmanaha dasharathasya ityarthaha sutartham tapyamanasya, he who was very anxious to be get sons, nasi dvamshakaras sutaha tadevatyachyate anapatyataya duyamanamanase dasharathe. அந்தரம் ஏதபி உச்சதே ஏதச்சுத்வா ரஹசூதோ ராஜானமிதம் அப்ரவீத் ஶ்ரூயதாம் தத் புராவ்ருத்தம் புராணேச மயா ஶ்ருதம். சோ ஹி சேஸ் திஸ் இன்சிடென்ட் ஐ ஹேட் ஹர்ட் டியூரிங் சம் புராண கதன. ரித்விக்பிர் உபதிஷ்டோயம் உபதிஷ்டோயம் புராவ்ருத்தோ மயா ஶ்ருதஹ சனத்குமாரோ பகவான் பூர்வம் கதிதவான் ஸ்வயம் இதி பாலகாண்டஸ்ய நவமே சர்கே சுமந்த்ரஹ தசரதம் கதயதி. So then he recounts the whole thing. So that story is also quite long there. So Bhoja condenses it. Usually the Gadya is for condensing a lot of, you know, the story matter. The Varnana you get in the Padya and story is condensed in the Gadya. Okay. So Atha Asmin Anapatyataya. So Na Apatyam Anapatyam. அனபத்திய பாவஹ அனபத்யதா தத்தித பிரத்யயஹ தல் இதி பிரத்யயஹ தயா அனபத்யதயா ஸ்த்ரீலிங்கஹ த்ருதியா விபக்திஹ ஏகவசனம். தூயமான மானசே தூயமானம் மானசம் யஸ்ய சஹ தூயமான மானசஹ தஸ்மின் சப்தமி விபக்திஹ ஏகவசனம். தூன்ய உபதாபே இதி தாதோஹ ஷானச் பிரத்யயஹ தூயமானம் இத்யத்ர புத்ரார்த்தம் க்ரதும் அஸ்வமேதம் விதாதும் மந்த்ரிபிஹி சமம். சோ சமம் சஹ சாகம் சார்தம் சமம் இதி சத்வாரி அவ்யயானி, ரைட், ஃபோர் அவ்யயஸ், ஆல் ஆஃப் தெம் மீன் வித் ஆர் அலாங் வித். சோ ஏதைஹி யோகே த்ருதியா விபக்திஹி பவதி. வி நோ சஹ ராமேண சஹ தஸ்மின்னேவ அர்த்தே சாக்கம் சார்தம் சமம். சோ ஹியர் சமம் டஸ் நாட் மீன் ஈக்வல் டு, தஸ்மின் அபி அர்த்தே சமசப்தா அஸ்தி தேன சமஹ இத்யாதி. அத்ர து வித் தெம் இத்யர்த்தஹ மந்த்ரிபிஹி சமம் அமாத்யை சஹ இத்யர்த்தஹ சஹயுக்தய பிரதானே இதி த்ருதியா விபக்திஹ. மந்த்ரிபி சமம் மந்த்ரயமானே மத்ரி குப்த பரிபாஷணே. So the dhatu mantrayate, mantrana is discussing secretly. It's not an open discussion. So it's a secret discussion between a king and his ministers or with friends, etc. Gupta paribhashane iti dhatuhu, mantrayate, chatur dashamaganasya dhatuhu, shanach pratyayah. So mantrayamane dasharathe, pullinge saptami vibhaktau ekavachanam. அங்கதேச சங்கத அவக்ரஹ நிக்ரஹ சௌண்டஸ்ய இத்யஸ்தி அவக்ரஹ விருஷ்டிர் வர்ஷம் தத்விகாதே அவக்ரஹ அவக்ரஹௌ சமௌ இத்யமரஹ. விருஷ்டிஹி வர்ஷம், சோ இட் மீன்ஸ் ரெயின்ஸ். தத்விகாதே, சோ வென் ரெயின்ஸ் ஆர் பிரிவென்டெட், வென் தேர் ஆர் நோ ரெயின்ஸ், இட் இஸ் கால்ட் அவக்ரஹ ஆர் அவக்ரஹ. போத் வேர்ட்ஸ் ஆர் தேர். ஓகே, சோ விபாண்டகசூனோ அவசியம் ருஷ்யஶ்ருங்கஸ்ய பிரசாதாத் பிரபவஹ பவிதா. பூசத்தாயாம் தாதோஹ லுட் லகாரஹ. சோ தேர் ஆர் டூ லகாரஸ் ஃபார் பவிஷ்யத் கால. ஒன் இஸ் த காமன் லிட், பவிஷ்யதி படிஷ்யதி எட்ஸெட்ரா. த அதர் இஸ் கால்ட் லுட், அனத்யதனே பவிஷ்யதி. சோ பவிஷ்யத் கால விச் இஸ் நாட் டுடே, தட் இஸ் டுமாரோ ஆர் லேட்டர். Okay, so such bhavishyat kala is given by lut. Bhavita, bhavishyati ityeva arthah. Lut lakare prathama purushe ekavachanam. Bhavita, bhavitarau, bhavitarah. Bhavitasi, bhavitasthah, bhavitastha. Bhavitasmi, bhavitasvah, bhavitasmah. Iti rupani. So bhavita kumaranam iti sanat kumarena udiritam. Sanat kumaro udiritam. புராவத்தம் அஸ்மை தசரதாய கதயாமாச. சோ கத வாக்கிய பிரபந்தே, சோ கத இஸ் டு நரேட், யூ நோ, இட் டு டெல் அ லாங் திங், இட்ஸ் நாட் ஜஸ்ட் சேயிங் சம்திங், சோ அ லாங் திங் வாக்கிய பிரபந்தே, சோ குரூப் ஆஃப் வேர்ட்ஸ் ஆர் குரூப் ஆஃப் சென்டென்சஸ் இஸ் கால்ட் கத கதயதி. சோ லிட்லகாரே பிரதம புருஷே ஏகவச்சனம் கதயாமாச. I am not given detailed samasa for all. If you have any doubts, you can ask anytime. Okay. So, atha asmin anapatyataya duyamanamanase putrartham kratum ashvamedham vidhatum mantribhihi samam mantrayamane dasharathe sumantraha prahrishtamanaha maharshehe angadesha sangata avagraha nigraha shaundasya vibhandakasunoho அவசியம் ருஷ்யஶ்ருங்கஸ்ய பிரசாதாத் பிரபவஹ பவிதா குமாராணாம் இதி சனத் குமாரோதீரிதம் புராவ்ருத்தம் அஸ்மை தசரதாய கதயாமாஸ. சோ சுமந்த்ரா நரேட்ஸ் அன் எர்லியர் இன்சிடென்ட் விச் வாஸ் டோல்ட் பை சனத் குமார. வாட் வாஸ் தட்? இட் வாஸ் தட் தசரதா வுட் சர்டன்லி பிகெட் சன்ஸ் பை த கிரேஸ் ஆஃப் த சேஜ் ருஷ்யஶ்ருங்க, the son of Vibhandaka, who succeeded in relieving the drought in the Angadesha. So this was told to Dasharatha by Sumantra when Dasharatha was discussing among his ministers to perform an Ashwamedha Yajna for getting sons. Agre gachamaha. Any questions? அஸ்து அக்ரிமம் கத்யம் அஸ்தி. சோபி சுமந்திரவதனாச்சாந்தாதிஹி சாந்தாகுடும்பினம் சம்பந்தினம் முனிமானீய வசிஷ்டாதிஷ்டம் அஸ்வமேதாத்வரம் சரயூரோதசி விதாய தத்ர புத்ரியாமிஷ்டிம் விதிவத் கர்த்தும் ஆரபத. சோ தசரத பிரிங்ஸ் ருஷ்யஶ்ருங்க அண்ட் ஸ்டார்ட்ஸ் டு பெர்ஃபார்ம் த யஜ்ஞ தேர். ஓகே, சோ பரச்சேதம் கோபி விவக்ஷதி காமாட்சி. நூயத்தை அனேபிள் டு ஹியர் யூ. இஸ் யுவர் மைக்ரோஃபோன் ஆன் ஆர் டர்ன்ட் ஆன்? No, na shruyate. So please take it. Usually a problem with the microphone if we are able to, unable to hear you. Sudha, hone.
Saha api. சுமந்திர வச்சனாத் சாந்த ஆதிஹி சாந்த குடும்பினம் சம்பந்தினம் முனிம் ஆனிய வசிஷ்டாத் இஷ்டம்
அஸ்வமேதம்
வசிஷ்ட ஆதிஷ்டம் அஸ்வமேத அத்வரம் சரயு ரோதசி விதாய தத்ர புத்ரீயம் புத்ரீயாம் இஷ்டிம் விதிவத் கர்த்தும் ஆரபத.
சம்யக். சோ ரிஷ்யசிருங்கம் அங்கதேசாத் ஆனிய தசரத அஸ்வமேத யஜ்ஞம் புத்திரகாமேஷ்டிம் ச ஆச்சரதி. ஓகே, சோ திஸ் இஸ் எ வெரி கண்டென்ஸ் திங் ஆஃப் தி ஸ்டோரி, பிகாஸ் ராமாயண ஹாஸ் மெனி சர்கஸ் விச் டிஸ்கிரைப்ஸ் ரிஷ்யசிருங்க, ஹவு ஹி வாஸ் இன் அ ஃபாரஸ்ட் வித் யூனோ நோ கான்டாக்ட் வித் பீப்புள். விபாண்டக கீப்ஸ் ஹிஸ் சன் in a forest without allowing him to meet anybody at all. So Romapada sends some Ganika strees to bring him, to lure him to Angadesha, and then he gives his daughter Shanta to him in marriage. So all that is not there in the Bhojaramayana. So Dasharatha simply goes, brings Rishyashringa and performs the sacrifice, both Ashwamedha and Putrakameshti. Okay. So, saha api sumantra vachanat shantadhihi. So, sumantra vachanat shantadhihi. Chatva sandhi. The takara and shakara come together. You get the chakara there. So, that is called chatva sandhi. Shanta adhihi. Shanta kutumbinam sambandhinam munim aniya. Vasishtha adhishtam ashwamedha adhvaram. சரயூரோதசி விதாய தத்ர புத்ரியாம் இஷ்டிம் விதிவத் கர்த்தும் ஆரபத. சோ சஹ அபி தசரதஹ அபி சுமந்திர வசனாத் சுமந்திரேண கதிதாத் சனத்குமார பிரசங்காத். சோ பை த வேர்ட்ஸ் ஆஃப் சுமந்திர சாந்தாதிஹி சாந்தஹ சமங்கதஹ சோ காம்ட் ஆதிஹி சோ ஆதி வியாதி. So, Vyadhi is a physical ailment. Adhi is a mental affliction. Okay? So, Adhihi nama manasika vyatha. Sumantrasya vachanam shrutva mahutraha bhavanti iti vishvasaha dasharathe utpadyate. Ataha tasya vyatha shanta. Astu yajyam kurmaha nishtayena putraha bhavanti iti santushtaha shanta adhihi. Shantaha adhihi nama manasika vyatha yasya tadrishaha. சாந்தா குடும்பினம் சாந்தா நாம ரோமபாதஸ்ய புத்ரி அங்கதேசஸ்ய ராஜா ரோமபாதஹ தஸ்ய புத்ரி சாந்தா தஸ்யாஹ பதிஹ சாந்தா குடும்பி நாம சாந்தாயாஹ பதிஹ ரிஷ்யசிருங்கஹ சம்பந்தினம். சோ தேர் இஸ் எ டவுட் ஹியர் ஆன் ஹவு டு இன்டர்பிரெட் திஸ். சோ த வியாக்யாகார ஹி இன்டர்பிரெட்ஸ் அஸ் ஹி இஸ் த Jamata, that is the son-in-law of Romapada, who was like a brother to Dasharatha. Dasharatha and Romapada were very good friends, and since a friend's son-in-law, so he is as good as a relative. So there is also a story which says Shanta was actually Dasharatha's daughter who was given to Romapada in given as Dattakam. So she was adopted by Romapada. And therefore, Rishyashringa is a son-in-law of Dasharatha himself, because Shanta was originally his daughter. Sapi katha asti. So, Mula Ramayane sakshan na kathyate. So, there is nothing directly about this in the Mula Ramayana, but there also you have the word sambandhi. He is a relative. So, how is Rishyashringa a relative to Dasharatha? So, either, if we go by that story, it is a direct son-in-law, or else he is the son-in-law of a friend, a very close friend. So, sambandhinam munim nama rishyashringam aniya. So, swayam dasharathaha gachyati gatva sagauravam aryodhyam anayati rishyashringam shantam cha. So, ubhavapi anayati, dampati anayati. So, aniya vasishtha dishtam vasishtha kulaguruhu तेन आदिष्टम्। सो वसिष्ठः उक्तवान् अश्वमेधयज्ञं कुरु इति, अतः तेन आदिष्टम् अश्वमेधाध्वरम्। अध्वरः नाम यज्ञः, अश्वमेधनामकं यज्ञं सरयू रोधसि, सरयू नद्याः तीरे, रोधः नाम तीरम्। सो आन् द बैंक्स् आफ् द सरयू रिवर् विधाय कृत्वा, तत्र नाम तत्रैव सरयू तीरे एव, पुत्रीयाम् इष्टिम्। सो पुत्तकामेष्टिः, ये पुत्रान् कामयन्ते तैः क्रियमाणा वृष्टिः। सो पुत्रोत्पादन हेतुः यागः, सो अ याग विच् हूस् फल इस् टु प्रोवैड् सन्स्। सो पुत्रीयाम् इष्टिम् विधिवत् यथाशास्त्रम् कर्तुम् विधातुम् आरभत उपाक्रमत। सो दशरथ whose agitation was eased by the words of Sumantra, so he brings Rishyashringa, the husband of Shanta, and on the banks of the Sarayu river, he first performs the Ashwamedha Yajna, which was ordered by his Kulaguru, and then he also starts to perform the Putrakameshti, which was suggested by Rishyashringa himself. So Tatra Balakande उच्यते, आदौ सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथो भवत्, अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च सान्तःपुरः सहामात्यः प्रययौ यत्र सद्विजः। सो टेकिंग वसिष्ठस् परमिशन, ही हिमसेल्फ गोज अलोंग विथ हिज वाइव्स, अलोंग विथ द मिनिस्टर्स, ही गोज टू ब्रिंग ऋष्यशृंग फ्रॉम अंगदेश। And then Rishyashringa says, Ishtim teham karishyami putriyam putrakaranat atharvashirasi proktaihi mantraihi siddham vidhanatah. Iti Rishyashringa swayam kathayati dashratham. Ashwamedha yajnam karayitva sahavadati astu idanim putrakameshtim karayami. Ishtim teham karishyami putriyam putrakaranat. Iti Rishyashringa dashratham kathayati. Evam पुत्रीयामिष्टिं कर्तुम् आरभते दशरथः। ओके, सो अर्थः अवगतः। शान्ताधिः, शान्तः आधिः यस्य सः, इकारान्तः पुल्लिङ्गः प्रथमाविभक्तौ एकवचनम्, पुंस्याधिः मानसी व्यथा इति अमरः। सो आधि व्याधि दे आर् पुल्लिङ्ग वर्ड्स्, सो कामन्ली वी टेन् टु थिङ्क् देम् एस् स्त्रीलिङ्ग वर्ड्स् लैक् बुद्धि सिद्धि एट्सेट्रा, but adhihi vyadhihi, both of them are pullinga words. Okay, so shanta adhihi, shanta kutumbinam, kutumbah asya asti iti kutumbi, kutumba shabdat in pratyayah tadhitah, gunin shabdavat kutumbin nakarantah, shantayah kutumbi, shanta kutumbi. So nakarantah pullingah द्वितीय विभक्तौ एकवचनम्, शान्ता कुटुम्बिनम् संबंधिनम्। सो संबंधः अस्य अस्ति इति संबंधिन्, सो वेरी सिमिलर वर्ड्स्, तत्रापि इन् प्रत्ययः, नकारान्तः पुल्लिङ्गः, द्वितीय विभक्तौ एकवचनम्, संबंधिनम्। मुनिम् आनीय वसिष्ठादिष्टम्, वसिष्ठेन आदिष्टः तम् अश्वमेधाध्वरम्, अश्वमेधः इति अध्वरः। सो कर्मधारय समासः, तम् यज्ञः सवोद्धरो यागः, यज्ञः सवः अध्वरः यागः, दे आर् ऑल पर्यायपदस्। सरयू रोधसि, सरयवाः रोधः तस्मिन्, रोधस् इति सकारान्तः नपुंसकलिङ्गः सप्तमी विभक्तौ एकवचनम्, कूलं रोधश्च तीरं च। सो यु हैव कूलं रोधः तीरम्, all these are words for the bank of a river. Putriyam, putranam yam putriya, so putra shabdat ch iti taddhita pratyayah, you have tvadiya madiya, so all these are similar words with the ch pratyaya. Mama idam madiyam, tava idam tvadiyam, putrasya idam putriyam ityadi. Ishtim विधिवत् कर्तुम् आरभत, आ उपसर्गः रभराभस्ये इति धातुः, रभते लङ्लकारे प्रथमपुरुषे एकवचनम् आरभत। Okay. So that's it for today. So adya asti prashasta janalochananam ananda sandayishu kosaleshu ajnya samutsarita danavanam rajyam ayodhyeti puriraghunam iti ayodhya nagaryaha varnanam drishtam. Tama vasaddasharathasuravanditena sankrandanena vihitasanasam vibhagaha vrindarakari vijaye suraloka labdhamandara malyamadhu vasitavasa bhumihi dasharathasya varnanam indrenaiva dattardhasanaha svargasukham anubhavan raja dasharathaha ayodhya nagaryam vasatisma athasmin anapatyataya duyamana manase putrartham kratumashvamedham vidhatum mantribhissamam mantrayamane dasharathe sumantraha prahashtamanaha maharshe rangadesha sangata avagraha nigraha shaundasya vibhandaka suno ravashyam rishyashangasya prasada prabhavobhavita kumaranamiti sanatkumarodiritam puravrattam asmai dasharathaya kathayamasa. So sumantra tells him, so dasharatha is very sad for sons. Putra shokat putraha na santi iti shokena khinnaha saha ashwamedha yagyam kartum amatyaihi saha charchaṁ karoti tada sumantraha kathayati brahmanaha manasaputrena sanatkumarena evam kathitam vibhandaka putrasya rishashringasya prasadat nishchayena putrotpattihi bhavishyati iti sopi sumantra vachanachhantadhihi shanta kutumbinam sambandhinam munimaniya vasishtha dishtam ashwamedhadvaram sarayurodhasi vidhaya tatra putriyam ishtim vidhivat kartum arabhata. So dasharathaha svayam gatva rishyashringam anayati tasya yajakatve ashwamedha yagyam tatha putriyam ishtim cha sarayu nadyah tire karoti. Tyatra sthagayamaha agrima marge agre pashyamaha. Any questions? Lakshmin tanotu nitaram itarana pekshamam hridvayam nigama shakishikha pravalam hairambam amburuhadambara chaurya nignam vighnadribheda shatadhara dhurandharam naha.